गिरफ्तुम साम विमलय शब्द वारिभिः तमश्चा ज्ञानजं भिन्नं तस्मै पाणिनेय नमः नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीय प्रवेशाय लघु सिद्धांत कौमुदीं गुरुरेव गतिः गुरुमेव भजे गुरुनैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोः मतिरस्ति गुरौ मम पाहि गुरो ओं नमः पाणिनि कात्यायन पतञ्जलिभ्यः शब्द विद्या संप्रदाय प्रवर्तकेभ्यः नमो मुनिभ्यः नमो गुरुभ्यः स्वयं हलसंधि प्रकरणे स्मः तत्र आदौ स्तुत्वसन्धिः श्रुत्वसन्धिः जस्त्वसन्धिः अनुनासिकसन्धिः एते सन्धयः अस्माभिः अधीताः इदानीम् अस्यां कक्षायां पूर्वसवर्णसन्धिः उदस्थास्तम्भो पूर्वस्य ओ तोर्लि तत् तोर्लि इति सूत्रं मया किमर्थं त्यक्तमित्युक्ते अनुस्वारस्य ययि परसवर्णः इति एकं सूत्रम् अग्रे आगच्छति 8458-8459 अनुस्वारस्य ययि परसवर्णः वा पदान्तस्य तदनन्तरं तोर्लि इति स्वीकुर्मः एतत् सूत्रम् अद्य त्यजामः सुलभमस्ति परन्तु परसवर्णसन्धि सूत्रं तोर्लि अतः परसवर्णः यत्र उच्यते लघुकौमुद्यां तत्र मया उच्यते इति चिन्तितम् अतः मया स्लैड् करणसमये अपि तद् त्यक्तम् अवश्यं तत् अग्रिमकक्षायां भविष्यति इदानीम् उदस्थास्तम्भोः पूर्वस्य इति सूत्रमस्ति उदस्थास्तम्भोः पूर्वस्य इत्यत्र पदत्रयं विद्यते उदः स्थास्तम्भोः पूर्वस्य उदः इति पञ्चमी विभक्तिः एकवचनं स्थास्तम्भोः इत्यत्र षष्ठी द्विवचनं पूर्वस्य इति षष्ठी एकवचनम् इदानीम् अस्य सूत्रार्थः लघुकौमुद्याम् उदः परयोः स्थास्तम्भयोः पूर्वसवर्णः स्यात् इति सूत्रार्थः पूर्वसवर्णः नाम किं तत्सर्वम् अस्माभिः इदानीम् अधीयते अत्र एतदपि विधिसूत्रम् अस्ति सूत्रार्थः एवं सम्पन्नं भवति तत्र अष्टमाध्यायस्य चतुर्थाध्याये चतुर्थपादे षष्टितमं सूत्रमेतत् तत्र अनुस्वारस्य ययि परसवर्णः इति सूत्रमस्ति तत्तु अष्टपञ्चाशत्तमं सूत्रम् अनुस्वारस्य ययि परसवर्णः इत्यस्मात् सूत्रात् एकनिमिषम् अनुस्वारस्य ययि परसवर्णः इति सूत्रात् सवर्णः इति अनुवृत्तिः भवति अत्र मया लिखितम् अनुस्वारस्य ययि परसवर्णः इत्यस्मात् सवर्णः इति अनुवृत्तिः भवति व एवं उद इति उपसर्ग वयम जानीमः उद उपसर्ग सहित स्था स्तंभोः धातोः पूर्व सवर्णः आदेशः भवति। अत्र उदः इत्यत्र दिग्योगे पंचमी इत्युक्ते दिग्योगे पंचमी इति कोपि जानाति वा? वामतः दक्षिणतः इति अस्ति किल, एवम् उदः इत्यत्र दिग्योगे पञ्चमी इत्युक्ते अत्र वर्णानां दिशा द्विधा एव भवति, परः वा पूर्वः वा। यदि उदः उदः परयोः परयोः इति कथम् आगतं सूत्रार्थे? उदः स्थास्तम्भयोः पूर्वसवर्णः स्यात् इत्येव आगतम्। पूर्वस्य इति तु सूत्रे एव अस्ति, सवर्णः इति अनुस्वारस्य यै परसवर्णः इत्यत्र परसवर्ण इति पदात् सवर्णः इति अनुवृत्तिः क्रियते। अनन्तरं परयोः इति कथं सम्पन्नम्? इदानीम् उदः इति पञ्चमी विभक्तेः अर्थः कः इत्यादि विषयाः अस्माभिः अध्येतव्याः। यदि षष्ठी विभक्तिः अस्ति तदा षष्ठी स्थाने योगा इति परिभाषासूत्रं प्रवर्तते, तदा स्थाने इति शब्दम् अस्माभिः स्वीक्रियते। यदि सप्तमी अस्ति तर्हि तस्मिन् इति निर्दिष्टे पूर्वस्य इति परिभाषया परस्य एव कार्यं क्रियते। इदानीम् उदस्थास्तम्भोः पूर्वस्य इति अस्ति किल, अत्र पञ्चमी विभक्तिः दिग्योगे पञ्चमी इति उच्यते। दिग्योगे पञ्चमी नाम पूर्वं वा परं वा, पूर्वदिक् वा परदिक् वा इति प्रश्नः उदेति। अतः उदः पूर्वस्थितस्थास्तम्भयोः पूर्वसवर्णः वा परस्थितस्थास्तम्भयोः पूर्वसवर्णः वा इति प्रश्नः। अन्यत्र अव्यवहितपरत्वं भवेत् वा व्यवहितपरत्वं भवेत् वा, व्यवहितपूर्वत्वं वा अव्यवहितपूर्वत्वं वा इत्यादि शङ्काः उद्भवन्ति। एतदर्थम् अस्माभिः अग्रिमसूत्रं पठनीयं, तस्मादित्युत्तरस्य इति। इदानीं तस्मादित्युत्तरस्य इति सूत्रं परिभाषासूत्रम्। उदस्थास्तम्भोः पूर्वस्य इति तु विधिसूत्रम्। इदानीं तस्मादित्युत्तरस्य इति तस्मात् इति शब्दः, तस्मात् इति पञ्चमी विभक्तिशब्दः अष्टाध्यायीस्थित सर्वसूत्रेषु यत्र यत्र पञ्चमी विभक्तिः भवति तत् सूचयति तस्मादिति शब्दः। यथा षष्ठीस्थाने योगा इति षष्ठी इति शब्दः, तस्मिन् इति शब्दः, तस्मिन् इति निर्दिष्टे पूर्वस्य तस्मिन् इति शब्दः, तत्शब्दस्य यद्यपि सप्तमी विभक्तिः अस्ति तथापि तस्मिन् इति शब्दः किं सूचयति इत्युक्ते समस्त अष्टाध्यायी स्थित सूत्राणाम यत्र यत्र पंचमी विभक्ति ही यत्र यत्र पंचमी विभक्ते है निर्देश क्रियते तदेव सूचयति तस्मिन्निति शब्दः तथा एव अत्रापि तस्मादित्युत्तरस्य इति सूत्रं परिभाषा सूत्रं परिभाषा सूत्राणि किं कुर्वन्ति विधिसूत्रस्य उपकारं कुर्वन्ति विधिसूत्राणाम् अर्थकरणे साहाय्यं दास्यन्ति यदि परिभाषा सूत्राणि न भवन्ति विधिसूत्राणाम् अर्थं कर्तुं नैव शक्यते अतः इदानीं तस्मात् इत्युक्ते पंचमी निर्देशेन क्रियमाणं कार्यं कुत्र इति प्रश्नः सर्वत्र विधिसूत्रेषु पंचमी निर्देशेन यदि कार्यं क्रियमाणं भवति तदा किं अस्माभिः ज्ञेयम् कथं तस्य सूत्रार्थः करणीयः तदा उच्यते तस्मादित्युत्तरस्य तस्मादित्युत्तरस्य इत्यत्र पञ्चमी उत्तरस्य इत्यत्र षष्ठी अस्ति उत्तरस्य पञ्चमी निर्देशेन क्रियमाणं कार्यं वर्णान्तरेण अव्यवहितस्य परस्य ज्ञेयम् इति अत्र अर्थः सम्भवति अत्र तस्मिन् इति निर्दिष्टे पूर्वस्य इति इत्यस्मात् सूत्रात् निर्दिष्टः इति शब्दः अस्ति अतः निर्दिष्टः निर्देशेन इति विभक्तिपरिणामं स्वीकृत्य अत्र आगच्छति तस्मिन् इति निर्दिष्टे पूर्वस्य इति सूत्रम् अष्टाध्याय्यां प्रथमाध्यायस्य प्रथमपादे विद्यते तस्मात् सूत्रात् निर्दिष्टे इति पदं विभक्तिविपरिणामं स्वीकृत्य निर्देशेन इति निर्देशेन इति भवति एवं पञ्चमी विभक्त्या निर्दिश्यमानं कार्यं वर्णान्तरेण अव्यवहितस्य परस्य स्थाने एव भवति इति अस्य सूत्रस्य अर्थः अनया परिभाषया किं निश्चीयते यत्र यत्र सूत्रेषु पञ्चम्याः श्रवणं भवति अत्र अस्माभिः अपादानकारकम् इति अर्थः न करणीयः पञ्चमी अपादाने पञ्चमी इति सूत्रं विद्यते तत् सदा किं क्रियते वृक्षात् पर्णं पतति इत्यत्र वृक्षात् इत्यत्र अपादानकारकं विद्यते अतः पञ्चमी विहितः यत्र यत्र पञ्चमी विहितः तत्र अपादानकारकम् इति एवम् अस्माभिः अर्थनिर्णयः न करणीयः विधिसूत्रेषु एतत्तु इति इयं परिभाषा अस्मान् उपदिशति अतः इदानीम् उदस्तास्तम्भोः पूर्वस्य इत्यत्र उदः इति पदं पञ्चमी विभक्तौ अस्ति तदा उत्तरस्य वर्णान् पञ्चमी निर्देशेन क्रियमाणं कार्यं वर्णान्तरेण अव्यवहितस्य परस्य ज्ञेयम् इदानीं पूर्वस्मिन् सूत्रे अस्माकं प्रश्नः कः आसीत् उदः इति दिग्योगे पञ्चमी अस्ति उदः इति पूर्वस्य कार्यम् उदः इति पञ्चमी विभक्तेः निर्णयः पूर्वस्य कार्यं वा परस्य कार्यं वा इति निर्णयः करणीयः एवं तदनन्तरम् अव्यवहितपूर्वत्वं वा अव्यवहितपरत्वं वा इत्यादि निर्णयः करणीयः इति प्रश्नाः समुद्भूताः इदानीं किम् अभवत् பஞ்சமி நிர்தேசேன விதீயமானம் காரியம் பஞ்சமி நிர்தேசேன விதீயமானம் காரியம் வர்ணாந்தரேன அவ்யவஹிதஸ்ய பரஸ்ய ஜ்ஞேயம் அவ்யவஹிதஸ்ய அவ்யஹித பரஸ்யைவ காரியம் பவதி. இதானிம் அவ்யவஹித பரஸ்ய இதி ஆகதம் ஏவம் உத்தர உத்தரத்ர ஏவ காரியம் பவதி உத்தரஸ்ய ஸ்தானே இதி பவதி. இதானிம் உதாஹ ஸ்தாஸ்தம்போஹ பூர்வஸ்ய இதி சூத்திரம் அஸ்தி. இதானிம் புனஹ அயம் பிரஷ்னஹ சம்பவதி அவ்யவஹிதபரத்வம் அஸ்தி வா நாஸ்தி வா? கிருபையா உத்தரம் தீயத்தை வா. அவ்யவஹித பரத்வம் நாஸ்தி. அதஹ அத்ர உது பிரஸ்தானம் இத்யத்ர மத்யே வ்யவதானாத் உதஸ்தாஸ்தம்போ பூர்வஸ்ய இதி சூத்ரேண பூர்வசவர்ணஹ ந பவதி. ஏவம் உதஹ அவ்யவஹித உதாஹ பரஸ்ய அவ்யவஹித ஸ்தா ஸ்தம்ப தாதோஹ பூர்வசவர்ணஹ பவதி இதி சூத்ரார்த்தஹ ஆகச்சதி. இதானிம் ஸ்தா ஸ்தம்போஹ இதி பதத்வயம் கஸ்யாம் விபத்தியாம் அஸ்தி. ஸ்தா ஷஷ்டி, ஷஷ்டி யதி ஷஷ்டி பவதி ததா ஷஷ்டி ஸ்தானே யோகா இதி பரிபாஷையா வா? அலோந்த்யஸ்ய அலோந்த்யஸ்ய இதி ஏகம் சூத்திரம் அஸ்மாபிஹி அதீதம். அந்த்யஸ்ய அலஹ ஸ்தானே பவதி. இதானிம் அலோந்த்யஸ்ய இதி பரிபாஷா அத்ர ப்ரவர்த்ததே வா இதி ப்ரஷ்னஹ புனஹ உதேதி. ததா உச்யதே ஆதேஸ் பரஸ்ய இதி. ததா உச்யதே ஆதேஸ் பரஸ்ய இதி அக்ரிமம் சூத்திரம். ஏதததபி பரிபாஷா சூத்திரமேவ. அத்ர கிம் உச்யதே பரஸ்ய யத் விஹிதம் தத் தஸ்ய ஆதேர் போத்யம். இதானிம் ஆதேஸ் பரஸ்ய இதி சூத்திரம் அலோந்த்யஸ்ய பரிபாஷாயாஹ அபவாதஹ एतद् अस्माभिः सम्यक् ज्ञातव्यम्। तस्मिन् दिने एकं चार्ट् दर्शितं, फ्लो चार्ट्, नीच आदेः परस्य, एतत् सर्वं मया दर्शितम् इति मन्ये। इदानीम् आदेः परस्य इति सूत्रं त्रिपञ्चाशत्तमसूत्रं प्रथमाध्यायस्य प्रथमपादे, आदेः परस्य इति सूत्रम् अलोन्त्यस्य इत्यस्य सूत्रस्य अपवादः अस्ति। इदानीम् आदेः परस्य इति सूत्रं कदा प्रवर्तते? तदा उच्यते यदि कार्यं परस्य विहितं भवति, तदा सदा किं करणीयं? परस्य आदेः करणीयम्। इदानीं यदि आदेः परस्य इति सूत्रं न स्यात् तदा किं स्यात्? उद्स्थानम् इति उदाहरणमस्ति। तदा अलोन्त्यपरिभाषया किं भवति? स्था इत्यत्र थकारस्य स्थाने वा, स्थानम् इत्यत्र पदस्य अन्ते वा आदेशः वा आगमः भवति। अवगतं वा? इदानीम् आदेः परस्य किं करोति? अत्र कुत्र कुत्र पूर्वपदे कार्यं, कुत्र कुत्र परपदे कार्यम् इति अस्माभिः विषयविभागः करणीयः। इदानीम् उदस्तास्तम्भोः पूर्वस्य इत्यत्र उदस्तास्तम्भोः पूर्वस्य इत्यत्र किं भवति? उदः इति पञ्चमी निर्देशः अस्ति, अतः पञ्चमी निर्देशेन यदा यदा कार्यं क्रियते तदा तदा सदा अव्यवहितपरस्य ज्ञेयम्। तदा उच्यते परस्य ज्ञेयम्। अस्तु, परस्य इदानीम् उद् स्थानम् इति अस्ति। स्थानम् इत्यत्र स्था इत्यत्र थकारः अपि अस्ति। तकारस्य स्थाने किमपि आदेशः करणीयः वा, सकारस्य स्थाने करणीयः करणीयो वा, आकारस्य स्थाने करणीयः वा इत्यादि भ्रमाः भवन्ति। तदा उच्यते आदेः परस्य इति परिभाषा आगच्छति। आदेः परस्य इति परिभाषा आगत्य पृच्छति परस्य कार्यं वा पूर्वस्य कार्यं वा इति पृच्छति। परस्य कार्यं, परस्य कार्यम् अस्ति चेत् मम अर्थं स्वीकरोतु। इदानीम् अहं किं वदामि? परस्य स्थास्तम्भोः इति अस्ति किल, तस्य आदेः कार्यं करणीयम्, आदिवर्णस्य कार्यं करणीयम्। आदिवर्णः कः? सकारः। सकारस्यैव थकारः, सकारस्यैव पूर्वसवर्णः। तकारः इति कथम् आगच्छति इति पश्यामः पुनः। सकारस्यैव आदेशः करणीयः इति आदेः परस्य इति सूत्रम् आगच्छति। अलोन्त्यस्य इति सूत्रम् आगच्छति, तदपि कार्यं कर्तुम् इच्छति। अलोन्त्यस्य इति सूत्रं वदति स्था इति अस्ति, थकारस्य स्थाने करोतु इति। तदा आदेः परस्य इति सूत्रं वदति अलोन्त्यस्य इति सूत्रं प्रति वदति भवतः अत्र कार्यं न, भवता अत्र प्रवेष्टुमेव नार्हत्वं, भवान् अहं भवतः अपवादः अस्मि, अतः अत्र भवतः प्रवेशः एव निषिध्यते इति उक्त्वा आदेः परस्य इति सूत्रम् अपवादरूपेण अलोन्त्यस्य इति सूत्रं वारयति। एवं किं भवति? परस्य कार्यं विहितम् इदानीम् उदस्थास्तम्भोः पूर्वस्य इति, उदस्थास्तम्भोः इति षष्टि अस्ति, अलोन्त्यस्य इति परिभाषा कदाचित् स्यात् इति सन्देहः भवति। अतः अस्माभिः किं क्रियते? आदेः परस्य इति परिभाषा आगत्य वदति यदि परस्य कार्यमस्ति अलोन्त्यस्य परिभाषा न प्रवर्तते, मम एव प्रवर्तनमत्र, मम एव कार्यमत्र, मम अर्थं स्वीकृत्य सूत्रार्थं करोतु, परस्य यद्विहितं कार्यं तत् तस्य आदेर्बोध्यम् इति आदेः परस्य इति सूत्रसाहाय्येन किम भवति सकारस्य थकारः भवति। इदानीं कदाचित् यदि अलोन्त्यस्य अन्त्यस्य अलः स्थाने भवति, षष्टिस्थानयोगः स्वीक्रियते चेत् स्थास्तम्भोः इति सम्पूर्णवर्णसमुदायस्यैव षष्टिवति अस्ति। एवं स्था उदः इदानीं षष्टिस्थाने योग इत्यपि किमर्थं न प्रवर्तते इत्युक्ते उद् स्थानम् इति अस्ति, स्थानं षष्टिस्थाने स्थानम् इति सर्वं निष्कास्य उद् उद् स्थानम् इत्यत्र चकारः। एवं सम्पूर्णवर्णसमुदायस्यैव आदेशः भवति, अतः षष्टिस्थाने योग इत्यपि न भवति। अलोन्त्यस्य इति भवितुमर्हति, अन्त्यस्य अलः भवितुमर्हति, परन्तु यदि परस्य कार्यं विहितं तदा आदेः परस्य इति सूत्रमागत्य मम कार्यमत्र इति उक्त्वा अत्र किं करोति, अपवादरूपेण स्वार्थम् अत्र उपस्थाप्य अर्थ सूत्रार्थकरणे किञ्चित् साहाय्यं करोति। एवम् उदस्तास्तम्भो पूर्वस्य इत्यत्र उदः इति पञ्चम्यन्तेन पदेन उदः इति उत्तरस्य स्थास्तम्भोः स्थाने पूर्वसवर्णः आदेशः विहितः। स च आदेशः आदेशपरस्य इति परिभाषया स्थास्तम्भोः इति इत्यादि आदिवर्णस्य सकारस्यैव भवति। इदानीं प्रश्नः, सकारस्य कः आदेशः? इदानीं सूत्रे पूर्वसवर्णः इति अस्ति, पूर्वस्य इति अस्ति किल, पूर्वस्य इत्यस्य अर्थं कथं स्वीकुर्मः? पूर्वसवर्णः। इदानीं कुत्र आदेशः करणीयः इति निर्णयसमनन्तरं कस्य प्रश्नः अस्ति वा, कस्य प्रश्नाः सन्ति वा? इदानीं प्रश्नः सम्भवति, इदानीम् अस्माभिः आदेशः कुत्र करणीयः इति अस्माभिः निर्णयः कृतः। कथं निर्णयः कृतः? अलोन्त्यपरिभाषायाः अपवाद आदेःपरस्य इति परिभाषां स्वीकृत्य निर्णयः कृतः। इदानीं निर्णयकरणानन्तरम् अस्माभिः सकारस्य कः वर्णः आदेशः भवति इति प्रश्ने कृते पूर्वसवर्णः आदेशः भवति इति उच्यते। पूर्वसवर्णः नाम किम्? इदानीं स्थानेऽन्तरतम इति परिभाषया अत्र सकारस्य विवार श्वास अघोष महाप्राणप्रयत्नाः सन्ति, तादृश एव इदानीं सकारस्य स्थाने सवर्णः अस्माभिः स्वीकर्तव्यः। विवार श्वास अघोष महाप्राणप्रयत्नः भवेत्, तादृश कः अस्ति इत्युक्ते उद् इत्यत्र त अस्ति, अतः तवर्गे एव अस्माभिः अन्वेषणं कर्तव्यम्। तवर्गे महाप्राणौ द्वौ स्तः, ठकारः त थ द ध ढकारः। ढकारस्य तु महाप्राणं यद्यपि अस्ति अघोषत्वं नास्ति, घोषत्वमस्ति, अतः अघोषत्वं तु थकारस्यैव। एवम् उद् था उद् थ् थानम् इति थकारैव आदेशः भवति। अवगतं वा सर्वैः? सकारस्य स्थाने कः वर्णः आदेशः भवति? हा, इदानीमहं दर्शयामि, प्रायः अग्रिम स्लैड् मध्ये अस्ति, इतोपि नास्ति वा? उदाहरणं तत् स्लैड् त्यक्तं वा किमपि? अस्तु, उद् स्थानम् इति अस्ति, उद् स्थानम् इति अस्ति। इदानीं सकारस्य स्थाने किम् आगतम्? ठकारः। एवम् उद् एवं भवति, अत्र अस्ति किल उद् थ् स्थानम्, उदत थानम इति भवति। सर्वैहि एतावत् पर्यन्तम् अवगतं वा आदेशपरस्य तस्मादित्युत्तरस्य इति परिभाषाद्वयम् अवगतं वा सर्वैः? इदानीं भाषितुं शक्यते किल? पूर्वं तु टैप् करणीयमासीत्। बहु समीचीनं प्रश्नम्। तत् यत्र यत्र करेक्ट्, बहु समीचीनः प्रश्नः। इदानीं केवल आभ्यन्तरप्रयत्नस्वीकारे सति किं भवति महाप्राणौ द्वौ स्तः? इदानीं केवलम् आभ्यन्तरप्रयत्नं स्वीकुर्मः, स्वीकृत्य पश्यामः किं भवति इति। आभ्यन्तरप्रयत्नाः, अत्र तुल्यास्य प्रयत्नं सवर्णम् इति अस्ति, तत्र आभ्यन्तरप्रयत्नाः पञ्चदा अस्ति लघुकौमुदीप्रकारेण, स्पृष्ट ईशस्पृष्ट विवृत संवृत भेदात्। इदानीं स्पृष्टं प्रयतनं स्पर्शाणाम् एवं किम् आगतम्? एकनिमिषम्। स्थानस्वीकारेण सर्वे गताः के? भगिनी भवत्या एव उत्तरं दत्तम्। इदानीं बाह्यप्रयत्नस्य स्वीकारं न कृतवन्तः इति वा? किमर्थम् इति प्रश्नः। इदानीं केवल आभ्यन्तरप्रयत्नेन इष्टसिद्धिः न भवति। इदानीं कथं ज्ञायते? कथम्? अस्तु, समीचीनप्रश्नः। एकनिमिषं, पद्मावामी अत्र अस्ति वा? पद्मावामी सुजाता भगिन्याः उत्तरं दातुं शक्यते वा? न न अत्र तु न एकनिमिषं, तादृश उत्तरं न। इदानीं सकारस्य तकारः एव किमर्थम् इति मया तकारः इति उक्तः। इदानीं भगिन्याः प्रश्नः एवम् अस्ति, तुल्यास्य प्रयत्नम् इति सूत्रम् अस्माभिः सदा स्वीक्रियते, इदानीम् अत्र तु बाह्यप्रयत्नः अपि स्वीकृतः। इदानीं स्पृष्ट ईषत्पृष्टविवृत संवृत विवारश्वास अघोष तु एते तु बाह्यप्रयत्नाः। इदानीं बाह्यप्रयत्नाः किमर्थं स्वीकृताः? अत्र तु विवार श्वास अघोष तु बाह्य प्रयत्न किल आभ्यंतर प्रयत्न पंच एव सन्ति स्पृष्ट ईषद् स्पृष्ट विवृत ईषद् विवृत संवृत एते आभ्यंतर प्रयत्न मया साधु उक्तं वा इदानीं पश्यामः सकारस्य आदेशः सकारस्य स्थानं किं ऋतुलसानां दन्तस्थानम् आभ्यन्तरप्रयत्नः कः सकारस्य आभ्यन्तरप्रयत्नः ईषद्विवृतम् ऊष्मणाम् ईषद्विवृतम् अस्ति इदानीं दन्त्यवर्णः भवेत् ईषद्विवृतं भवेत् यः आदेशः आगच्छति दन्त्यवर्णः भवेत् ईषद्विवृतं भवेत् इदानीम् ईषद्विवृतम् ऊष्मणाम् इति अस्ति ऊष्मणाम् ईषद्विवृतम् ऊष्मणाम् तो ऊष्मवर्णाः के के स श स स श एतयोः दन्त्यवर्णः कोऽपि अस्ति वा सकारं विहाय नास्ति सकारं विहाय किमपि नास्ति अतः आभ्यन्तरप्रयत्नेन कः वर्णः स्वीकर्तव्यः इत्येव निर्णयः न सञ्जातः नो चेत् बाह्यप्रयत्नस्य उपयोगः कुत्र कदाचित् कुत्रचित् उपयोगः भवेत् बाह्यप्रयत्नानाम् उपयोगः एवम् अत्र इष्टसिद्धिः न सञ्जातः सकारस्य कः वर्णः आदेशः भवितुमर्हति इति निर्णयः न सञ्जातः अतः अस्माभिः किं क्रियते बाह्यप्रयत्नं प्रति गच्छामः पश्यामः इति पुनः सकारस्य बाह्यप्रयत्नं किम् इति बाह्यप्रयत्नं स्थानं सर्वं स्वीक्रियते सकारस्य दन्त्यस्थानं बाह्यप्रयत्नं तु संवारश्वासनादघोष इदानीं विवारश्वास अघोषाः कराः नाम कर्कषव्यञ्जनानि इत्युक्ते सकारः कर्कषव्यञ्जनो वा मृदुव्यञ्जनः वा कर्कषव्यञ्जनः अतः विवारश्वास अघोषाः तेषाम् इदानीं तत्र कादयो वर्णानां द्वितीयचतुर्थौ शलश्च महाप्राणाः एवं महाप्राणत्वमपि अस्ति सकारस्य शल् इति प्रत्याहारे महाप्राणः अन्तर्गतः भवति शल् वर्णः सकारः अपि शल् वर्णः महाप्राणः इदानीम् एतावत् आगतं दन्त्यः विवारः श्वासः अघोषः महाप्राणः एवमागतं सकारस्य तादृश एव अस्माभिः अन्वेषणं कर्तव्यं दन्त्यवर्णः इत्युक्ते के के दन्त्यवर्णाः पश्यन्ति ऋतुलसानां दन्ताः तवर्गीयवर्णाः एवं त छ द द न इति आगतम् इदानीम् एलिमिनेशन् मेथड् करणीयः महाप्राणः द्वौ एव स्तः थकारः धकारः इदानीं धकारः धकारस्य हष्त्वमस्ति हष्त्वं संवारनादघोषत्वमस्ति संवाराः नादाः घोषाः अतः धकारः न सूक्तवर्णः केवल थकारः सूक्तवर्णः इति आगतम् एवं रीत्या निर्णयः कर्तव्यः अवगतं सुजाता भगिनी अवगतं उत्तमम् अस्तु अस्तु हाँ, कस्य प्रश्नः अस्ति? कस्याः प्रश्नः? एकनिमिषम्, अहं तु म्यूट्, सर्वेषाम् अन्म्यूट् कृतवान्। यः कोऽपि प्रश्नं पृष्टुमर्हति, या कापि वा, यः कोऽपि वा। अस्तु, कोऽपि प्रश्नाः न सन्ति इति भाति। हा, इदानीं स्थानेन्तरतमः इत्यत्र थकारस्य आदेशः। इदानीम् उद् स्थानम् इत्यत्र किं सम्पन्नम्? उद् थ् स्थानम् इति आगतम्। तदा अग्रिमसूत्रं प्रवर्तते, झरोझरि सवर्णे इति सूत्रं प्रवर्तते। अत्र झरोझरि सवर्णे इति सूत्रमस्ति। झरः झरि सवर्णे, झरः इति षष्ठी विभक्ति एकवचनं, झरि इति सप्तमी विभक्तिः, सवर्णे इति सप्तमी विभक्तिः। इदानीं सूत्रार्थः अष्टमाध्यायस्य, सूत्रं तु अष्टमाध्यायस्य चतुर्थपादे अस्ति। अत्र हलः परस्य झरः वा लोपः स्यात् सवर्णे झरि परे इति सूत्रार्थः। इदानीं कथं सूत्रार्थः सम्पन्नः इत्युक्ते, हलो यमां यमिलोपः इति सूत्रात् हलः लोपः इति पदद्वयं स्वीक्रियते। अष्टमाध्यायं स्वीकुर्वन्तु, अष्टाध्याय्यां मया सदा न उच्यते इत्युक्ते, सूत्रारम्भः यदा नूतनसूत्रस्य आरम्भः भवति तदा झटिति अष्टाध्याय्यां सूत्रम् उद्घाटितव्यम्। मया कदाचित् विस्मर्यते, अष्टाध्यायीम् उद्घाटयतु इत्यादि निर्देशः मया न क्रियते, तथापि झटिति सूत्रमुद्घाट्य कुत्र अस्ति इति एकवारं द्रष्टव्यम्। यद्यपि अत्र सूत्रसङ्ख्या निर्दिष्टः वर्तते, यत्किमपि भवतु, तथापि तदवलोकनं कर्तव्यमेव। सः नियमः अस्माभिः परिपालनीयः, तदा एव सूत्रस्य उपस्थितिः कुत्र अस्ति अष्टाध्याय्याम् एतत्तु अवश्यं ज्ञातव्यम्। नो चेत् अर्थावगमने क्लेशः, सूत्रार्थ अवगमने क्लेशः भवति। इदानीं हलो यमां यमिलो न श्रूयते वा? ओ, किमपि यन्त्रात् आगत्, एको अस्ति वा? इदानीं तु अहं भाषणं एको अस्ति इति अहं ज्ञातवान्, यतोहि ममापि एको अस्ति। इदानीं सम्यगस्ति वा? अस्तु, तत्र एको कथं मैनस् करणीयम् इति तदपि अहं न जानामि। अस्तु, सम्यगस्ति वा? अस्तु, झरोझरि सवर्णः। हा, इदानीं हलो यमां यमिलोपः इति सूत्रम्, इति सूत्रात् हलः लोपः इति पदद्वयं स्वीक्रियते। झयोहोऽन्यतरस्याम् इति सूत्रात् अन्यतरस्याम् इति स्वीक्रियते। अन्यतरस्याम् इति पदस्य अर्थः विकल्पः इति भवति। अन्यतरस्याम्, अन्यतरस्याम् इति कदाचित् पाणिनिः किं करोति वा इति वदति, कदाचित् अन्यतरस्याम् इति वदति, कदाचित् ज्येष्ठ आचार्याणां स्मरणं करोति लोपशाकल्यस्य इत्यत्र, तत्र शाकटायनस्य इति तदपि आगतं किल, तादृशस्थलेषु पूर्वाचार्याणां स्मरणं करोति। एतस्य सर्वस्य तात्पर्यं विकल्पः इत्येव। एतत्तु सम्यक् अवगन्तव्यम्। इदानीं प्रसिद्धसूत्रं किं वर्तते तत्र, पृथग् विना नानाभिस्तृतीयान्यतर स्यात् इति अस्माभिः प्रौढशाला मध्ये अपि पाठ्यते। पृथग् विना इति शब्दः यदा आगच्छन्ति तस्य योगे तृतीयाविभक्तिः, द्वितीयाविभक्तिः, पञ्चमीविभक्तिः इत्यादि अस्माभिः पाठ्यते। अन्यतरस्याम् इत्यत्र विकल्पः इति तत्र भवति। एवं जयो होऽन्यतरस्यामिति सूत्रात् अन्यतरस्यामिति पदं स्वीक्रियते। तत् वा, इदानीं लघुकौमुदीकारः किं कृतवान्, अन्यतरस्यामिति पदं वा इति स्थापितवान् सः। हलः परस्य झरः वा लोपः, झरः तु अस्मिन् सूत्रे अस्ति, हलः इति आगतं, परस्य इति हलः परस्य झरः, झरि इति सप्तमीविभक्तिः अस्ति, तस्मिन् इति निर्दिष्टे ओ पूर्वस्य, पूर्वस्य कार्यं परस्य, हलः परस्य झरः वा लोपः सवर्णे झरि, सवर्णः भवेत् झरि अपि भवेत्, झर्वर्णः भवेत्। अस्य उदाहरणम् अत्रैव पश्यामः। हलः उत्तरस्य झरः, झरः नाम अत्र प्रत्याहारसूत्राणि द्रष्टव्यानि, माहेश्वरसूत्राणां तत्र झरः झर् प्रत्याहारे वर्गानां प्रथम द्वितीय तृतीय चतुर्थ वर्णाः भवन्ति, अनन्तरं कः वर्णः भवति, झर्वर्णः नाम झर् हयवरट् झ हयवरट् लण् यमगणनं झभै इत्यादारभ्य, झ इत्यादारभ्य शससर्पर्यन्तं सर्वे वर्णाः। एवं तत्र वर्गाणां प्रथमवर्णः आगतः, द्वितीयवर्णः आगतः, तृतीयवर्णः जपगडदश आगतः, आगताः अनन्तरं चतुर्थवर्णानामपि सङ्ग्रहः अभवत् कपछटथ इत्यत्र। एवं श श स इत्यादि वर्णाः अपि आगताः, केवलम् अनुनासिकवर्णाः नागताः। अस्तु, ऊष्माणाः अनुनासिकाः। अस्तु, हयवरट् इत्यत्र, हयवरट् इत्यत्र अन्तस्थाः, एते वर्णाः नागताः। अस्तु, झर् झर् प्रत्याहारे इदानीम् उद् थ् थानम् इत्यत्र किं भवति, दकारात् हलः उत्तरस्य झर्वर्णः अस्ति, थकारः अस्ति। इदानीं थकारः झर्वर्णः, झर्वर्णस्य परे अपि सवर्ण झर्वर्णः एव अस्ति, झरो झरि सवर्णे, सवर्ण झर्वर्णः अस्ति, थकारः एव अस्ति। इदानीं सूत्रः किम् उपदिशति, विधिं कल्पयति, अत्र यदि सवर्णे झरि अस्ति तदा लोपम्, एकस्य लोपः करणीयः। इदानीं पूर्वस्य लोपः करणीयः वा, पूर्वतकारस्य लोपः करणीयः वा, परतकारस्य वा, थकारद्वयम् अस्ति, झरो झरि सवर्णे, झरि सवर्णे परे झरस्य लोपः, झरि सवर्णे परे झरस्य लोपः, झरस्य नाम एवं पूर्व थ ठकारस्य लोपः तत् सम्यक् ज्ञातव्यम्। हा एवम् उत्थानम् इति स्थितिः अभवत्। यदि झरोझरि सवर्णे इति सूत्रस्य प्रवृत्तिः नास्ति, यतोहि विकल्पः तत् सूत्रम्, तदा किं रूपम् उदुत्थानम् इति ठकारद्वयरूपं विद्यते। इदानीं लघुकौमुद्यां तत्र दत्तं मूलमेव अत्र लघुकौमुद्याम् अधः टिप्पणी अस्ति, तत्र अस्ति उत्थानम् इति सिद्धम्। उत्थानम् इति कथमागतम् इति करिच इति अग्रिमं सूत्रं। तदनन्तरम् इदानीम् उदुत्थानम् इति रूपम् अभवत्। उद् डबल् था अस्ति, द्वित्व इदानीं द्विर्वचनं नाम द्वित्वं, तकारस्य द्वित्वं भवति एक लोपाभावपक्षे। लोपपक्षे जरोझरि सवर्णे इति सूत्रस्य प्रवृत्तिपक्षे लोपपक्षे एकस्य तकारस्य लोपः भवति। एवम् उत्थानम् उदुत्थानम् उत्थानम् इति रूपद्वयम् इदानीं तिष्ठति, एवं रीत्या तिष्ठति। इदानीम् एतदनन्तरं खरिच इति सूत्रं विद्यते। अत्र खरिच इत्यत्र पदद्वयं विद्यते। झलां जस् जसि इति सूत्रात् झलाम् इति सूत्रस्य अनुवृत्तिः, अभ्यासे चर्चा इत्यतः चर् इति सूत्रस्य अनुवृत्तिः भवति। खरिच इति अष्टमाध्यायस्य चतुर्थपादे विद्यते। इदानीं खरि इत्युक्ते खरिपरे, झलां झलामिति सूत्रे प्रविष्टः, झलामिति पदं सूत्रे प्रविष्टः, झलां षष्ठीभक्तिः, झलां स्थाने झल् वर्णानां स्थाने चर् वर्णाः चर् भवति, चर्वर्णाः आदेशाः भवन्ति। तत्र कक्षामध्ये यदा यदि संवादः पृष्ठतः यत् सर्वं क्रियते, इदानीम् आडियो सर्वं श्रूयते। खरिपरे झलां चरः स्युः, यदि इदानीं खरि खर् वर्णः भवेत् तस्य झल् परकत्वं भवेत् तदा किं भवति, झलां स्थाने चर्वर्णाः भवन्ति। इदानीम् अस्य उदाहरणं खरिच इत्यस्य उदाहरणम्। ओ तत्तु शिवः एवं किमर्थं दत्तम्, उत्थानम् इत्येव दातव्यमासीत्। उदुत्थानम् इत्यत्र इदानीं खरि खर्वर्णः कुत्र अस्ति, थकारः कर्णवर्णः, इदानीं झरोझरि सवर्णः इति सूत्रं प्रवृत्तम् इति चिन्तयन्तु। तदा थकारः खर्वर्णः, खर्वर्णस्य परतः न दकारः, दकारः खर्वर्णः, खर्वर्णस्य परतः थकारे परे इत्युक्ते खर्वर्णे परे झलाम् आदेशः, झल् वर्णस्य दकारः, इदानीं दकारः झल् वर्णः तस्यैव आदेशः भवति, तस्यैव आदेशः भवति, चर्वर्णः भवति। चर्वर्णः नाम चर्वर्णाः के, च ट त प, प्रथमवर्णः, प्रथमवर्णः वर्गस्य प्रथमवर्णः। इदानीं स्थानेऽन्तरतमः इत्यनेन अस्माभिः दकारस्य प्रथमवर्णः स्वीकरणीयः, यतोहि दकारस्य स्थाने आदेशः, अतः दकारस्य प्रथमवर्णः टकारः। एवं उत्थानम् इति प्रयोगः इति रूपसिद्धिः अभवत्। यदि झरोझरि सवर्णे इति सूत्रं न प्रवर्तते, इदानीम् अस्माभिः तदपि चिन्तनीयम्। झरोझरि सवर्णे इति सूत्रं न प्रवर्तते यदि, तदा किं रूपं भवति? उत्थानम् इति थकार द्विथकाररूपं भवति, द्वितकाररूपमपि भवति। एतत् तत्तु स्लैड् मध्ये न दत्तम्, अहं योजयित्वा प्रेषयामि। इदानीम् उदस्थास्तम्भपूर्वसवर्णसन्धिः सम्पन्नः। अद्य केवलं पूर्वसवर्णसन्धिविषयकानि सूत्राणि एव अस्माभिः दृष्टम्। उदुत्थानम् इत्यत्र उत्थानम् इति कथम् आगच्छति? इदानीं स्तम्भनम् इति धातुः अस्ति, उदस्थास्तम्भोः इति अस्ति। स्तम्भनं स्तम्भधातोः अपि एवमेव प्रक्रिया, सकारस्य थकारः, तदनन्तरं किं भवति? झरोझरि सवर्णे अनन्तरं खरिच, यदि झरोझरि सवर्णे न भवति तर्हि उत् थ् थम्बनम्। अहमत्र टैप् करोमि वा? अहमत्र टैप् करोमि, पुस्तके अस्ति वा? टिप्पण्यामस्ति वा? उत् थ् एवं भवति। तत् करिच प्रथमम् उद् इति आसीत् किल, उद् इत्यत्र दकारस्य तकारः करिच इत्यनेनैव। अत्र उद् पुनः इदानीं सः किं वदति? थकारस्य पुनः चर्त्वं भवितुमर्हति इति प्रश्नः। पुनः चर्त्वं किमर्थं न भवति इत्युक्ते, पूर्वसवर्णस्य दृष्ट्या पूर्वसवर्णस्य चर्त्वसन्धिः चर्त्वसन्धेः खरिच इत्यत्र इत्यस्य सूत्रसङ्ख्या किम्? 8454। उदस्थास्तम्भोः पूर्वस्य इत्यत्र 61 अस्ति। 8454 न जानात्येव तत्र तत्र पूर्वसवर्णसन्धिः अभवत् इति न जानात्येव। दकारः आसीत् तकारः, पुनः तकारः आगतः इति न जानाति खरिच इति सूत्रम्। अतः खरिच इति सूत्रं किं चिन्तयति? अत्र स्तम्भनं सकारः एव अस्ति। खरिच इति सूत्रं किं चिन्तयति? उत् स्तम्भनम् इत्येव अस्ति इति चिन्तयति। अवगतं वा? सम्यक् अवगतं वा? कान्फिडेन्स् नास्ति आम् इति। सम्यक् अवगतं वा? अत्र केवलं उदस्थास्तम्भो पूर्वस्य इति सूत्रसङ्ख्या 61 अस्ति। इदानीं तत्र अत्र टिप्पण्यां किं दत्तम्? उत्थम्बनम् इदानीम् अत्र टैप् कृतं किल, मया नूतनतया टैप् कृतं किल स्क्रीन् मध्ये, तत् उत्थम्बनम् इत्यत्र तकारोत्तर थकारः अस्ति। पुनः थकारस्य तकारः कर्तुं शक्यते किल खरिच इत्यनेन? खरिच इत्यनेन खरिच इत्यत्र नियमाः के? खरि जलां चरः स्युः, जल् वर्णः अस्ति, तकारस्यापि तकारं करोतु। इदानीं तदा उच्यते खरिच इति सूत्रं थकारः अत्र अस्ति इति न जानाति, सकारः अस्ति इति जानाति। सकारः न तु जल् वर्णः जल प्रत्याहारे सकार अंतर्भवति वा? जल प्रत्याहारे सकार अंतर्भवति वा? सकार अंतर्भवति तर्हि यद्यपि जलाम जलत्वादेव अत्र प्रश्नः क्रियते थकारस्य किमर्थम् सकारस्य चर्त्वं न क्रियते किल अवगतं वा नावगतं वा अहं सम्यक् निरूपयामि अग्रिमकक्षायाम् एतद् विषयम् अत्र टिप्पण्यां किम् अस्ति इति अहं सम्यक् निरूपयामि किञ्चित् टेबल् किमपि कृत्वा अत्र तकारस्य चत्वेन तकारत्वं तु नाशङ्क्यं पुनः तकारः आगतः इति खरिच न जानाति अतः सकारः एव अस्ति इति चिन्तयित्वा अत्र मम कार्यमेव नास्ति इति न पुनः तकारं न करोति इति भावः अस्तु अहं पुनः अग्रिमकक्षायां वदामि एतावत्पर्यन्तम् अस्माभिः उदस्तास्तम्भपूर्यस्य पञ्चसूत्रेषु पूर्वसवर्णसन्देहे अध्ययनं कृतम् इदानीं पूर्वसवर्णः इतोपि पूर्वसवर्णस्य नियमाः इतोपि सन्ति चयोहोन्नतरस्याम् इत्यादि सूत्राणि इतोपि सन्ति तदपि पश्यामः अस्तु येनाक्षरसमां नायमधिगम्य महेश्वरात् पुस्तं व्याकरणं प्रोक्तं तस्मै पाणिनेय नमः येन धौताग्रपुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनेय नमः मत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम् अस्तु सर्वेभ्यः आङ्ग्लनूतनवर्षस्य शुभाशयाः अहं पूर्वं न उक्तवान् शुभरात्रि Mm-hmm.